नमस्कारः, किरार्ताजिनस्य द्वात्रिंशः श्लोकः। भवन्तमे तर्हि मनस्विगर्हिते विवर्तमानं नरदेववर्त्मनि कथं न मन्युर्ज्वलयत्युदीरितः शमीतरुं शुष्कमिवाग्निरुच्छिखः। भवन्तं ये तर्हि मनस्विगर्हिते विवर्तमानं नरदेववर्त्मनि कथं न मन्युः ज्वलयति उदीरितः शमीतरुं शुष्कम् इव अग्निः उच्छिखः। पदविभागः। पूर्वस्मिन् श्लोके द्रौपदी एवं कथं भवन्तं विहाय कः अन्यः राजा एतादृशीं सत्कुलोत् परम्परया आगतां महीं त्यागं कर्तुं प्रभवति, अपहारं कारयति इति पृष्टवती आसीत्। इदानीं तु कैश्चित् श्लोकैः इतोपि युधिष्ठिरस्य कोपं सम्यक् उद्दीपयति। एवं भवतः अनुजानां स्थितिं दृष्ट्वा भवतः मनसि कोपः न आगच्छति किं? दुर्योधनस्य अत्युत्तमं राज्यशासनं श्रुत्वा भवतः कोपं न आगच्छति किम् इत्यादिकम् उक्त्वा इतोपि युधिष्ठिरस्य कोपः यथा इतोपि दीप्तः भवति तथा कर्तुं प्रयत्नं करोति द्रौपदी। इदानीं किं वदति? हे नरदेव इति सम्बोधयति। ये तर्हि मनस्वि गर्हिते वर्त्मनि विवर्तमानं भवन्तं मन्युः कथं न ज्वालयति इति द्रौपदी पृच्छति। हे नरदेव, भवन्तं त्वाम् अग्निः क्षम्यतां मन्युः कोपः कथं न ज्वालयति, कथं न दाहयति, कथं न सन्तापयति इति पृच्छति। इदानीं भवन्तम् इति उक्ति किल, एषः भवन्तं कीदृशं भवन्तम् इत्युक्ते विवर्तमानं, विवर्तमानम् इत्युक्ते भ्रमन्तं, भ्रमणं कुर्वन्तं भवन्तं विवर्तमानं भ्रमणं कुर्वन्तं। कुत्र भ्रमणं कुर्वन्तं भवन्तं? मनस्वि एतर्हि मनस्वि गर्हिते वर्त्मनि विवर्तमानं भवन्तं। एतर्हि एतादृशे इदानीं, क्षम्यताम्, एतर्हि इत्युक्ते इदानीम् इति अर्थः, इदानीं मनस्वि गर्हिते वर्त्मनि विवर्तमानं भवन्तं। वर्त्मा इत्युक्ते मार्गः इति अर्थः। वर्त्मवर्त्मनि वर्त्मानि इति नकारान्तः नपुंसकलिङ्गशब्दः, तस्य सप्तमी विभक्तिः वर्त्मनि मार्गे इति अर्थः। कीदृशे वर्त्मनि इत्यस्य विशेषणमस्ति मनस्वि गर्हिते, मनस्विभिः गर्हिते मार्गे, मनस्विभिः निन्दिते मार्गे, मानधनाः ये सन्ति ते एव मनस्विनः, तैः जुगुप्सिते मार्गे भ्रमणं कुर्वन्तं भवन्तं। कारणम् इदानीं धर्मरक्षणार्थं वनवासं वयं कुर्वन्तः स्मः इति साधुरेव, किन्तु एतत् धर्मरक्षणार्थं यत् वनवासः क्रियते तत्तु प्रीत्या न क्रियते। यदि प्रीत्या राज्यभारं यस्य वयं वनवासं कुर्मः चेत् तत्तु समीचीनमेव, किन्तु एतादृश्यां स्थित्यां तु वनवासः कस्यां स्थित्यां वयं वनवासं कुर्मः इति भवतः मनसि किञ्चित् चिन्तयति चेत् निश्चयेन कोपः तु आगच्छति एव। अतः मनस्विभिः जुगुप्सिते मार्गे इत्यस्ति। जुगुप्सा इत्युक्ते जानीमः डिस्गस्ट्। मनस्विभिः जुगुप्सिते अस्मिन् मार्गे अटन्तं कुर्वन्तं भवन्तं मन्युः कथं न ज्वालयति, ज्वलयति मन्युः कथं न ज्वलयति, कथं न सन्तापयति, कथं न दाहयति कोपः। एतर्हि इत्युक्ते अस्मिन् आपत्काले इति अर्थः। एतस्यां स्थितौ अस्मिन् वनवाससन्दर्भे मनस्वि गर्हिते वर्त्मनि। पुनः नरदेव इति सम्बोधयति। नरेषु देवा देवस्थानम् अत्र अस्माकं जनानां मध्ये नरेषु देववत् विद्यमानः अस्ति भवान् इति कृत्वा नरदेव इति सम्बोधयति द्रौपदी. कीदृशः मन्युः इति एकं विशेषणमस्ति. उदीरितः मन्युः, उदीरितः उद्गतः, उत् ईरितः उद्गतः मन्युः नाम धैर्यं विवेकं विनयम् इत्यादिकान् भावान् अधः पातयित्वा यः कोपः उद्गच्छति उपरि इषां तेषां धार्मिकान् तान् धार्मिकान् विषयान् सर्वान् अपि अधः पातयित्वा यः कोपः उद्गच्छति तादृशः कोपः कथं त्वां न ज्वलयति इति पृच्छति. अत्र एकम् उपमा अपि वदति. शुष्कं शमीतरुम् उच्छिकः अग्निः इव. कथम् इव इत्युक्ते शुष्कं शमीतरुम् उच्छिकः अग्निः यथा शुष्कं शमीतरुं ज्वलयति तथा उदीरितः मन्युः त्वां न कथं न ज्वलयति इति पृच्छति. उच्छिकः अग्निः उद्गता शिखा यस्य अस्ति सः उच्छिकः अग्निः. उत् शिखा, उद्गता शिखा, तदेव उच्छिकः इति अभवत् षष्ठोटी इति सूत्रेण. उत् शिखा शकारस्य छकारादेशः उच्छिखा इति भवति. उच्छिकः अग्नेः विशेषणमस्ति उच्छिकः अग्निः. उच्छिकः अग्निः इत्युक्ते शिखा सम्यक् उद्गच्छदस्ति उद्गच्छन्ती अस्ति तादृशः अग्निः इति अर्थः. यस्मिन् अग्नौ शिखाः सम्यक् उद्गताः दृश्यन्ते नाम समीचीनः अग्निः अस्ति सम्यक् ज्वलयति अग्निः तादृशः अग्निः. शुष्कं शमीतरुं, शमीतरुं ज्वलयति तदपि शुष्कं शमीतरुम् इति वृक्षविशेषः. शमीतरुः इति वृक्षविशेषः. अरणिकट्ट इति वदामः किल, अरणिः इत्यपि संस्कृतं पदमस्ति. तदपि समिद् सम्बन्ध एतस्मादेव प्राप्यते इति मन्ये, अहमपि स्पष्टं न जानामि. शुष्कं शमीतरुं तदपि शुष्कमस्ति चेत् यावत् शीघ्रं ज्वलयति अग्निः. शुष्कं शमीतरं, शमीतरमेव ज्वलयति अग्निः. इतोपि शुष्कं शमीतरं चेत् इतोपि तस्य ज्वलनार्थम् इतोपि उत्तमः हेतुः अस्ति. यदि काष्ठः शुष्कः स्यात् तर्हि इतोपि शीघ्रम् अग्नि दाहयति तं वृक्षं. तथा भवतः इदानीं कोप उद्दीपनस्य हेतवः बहवः सन्ति. वनवास आचरणं, मम अपमानम् इति बहवः हेतवः सन्ति. अतः एते हेतवः भवतः कोपम् अवश्यम् उद्दीपयेत्, निश्चयेन ज्वलयेत् इति तस्याः आशयः, अभिप्रायः. पुनः एकवारम् अर्थं पश्यामः. हे नरदेव, नरेषु देव इति सम्बोधनेन भवता एव सर्वं कर्तुं शक्यते इति अर्थः अपि ज्ञायते. नरदेव इति सम्बोधनेन कां सः देववत् अस्ति नराणां मध्ये, नरेषु सः देवः अस्ति इति कृत्वा तस्य हस्ते अधिकारः अस्ति, भवान् यत्किमपि कर्तुं शक्नोति इति. एतर्हि एतस्मिन् आपत्काले अपि इति स्वीकरणीयम्. एतस्मिन् आपत्काले अपि मनस्विगर्हिते वर्त्मनि विवर्तमानं, मनस्विभिः जुगुप्सिते निन्दिते मार्गे गच्छन्तं भवन्तं भ्रमन्तं भवन्तम् उदीरितः मन्युः, उद्गतः मन्युः, विवर्धमानः प्रवृद्धः मन्युः, प्रवृद्धः मन्युः कोपः. उच्छिकः अग्निः शुष्कं शमीतरुम् इव. अत्यधिकाः शिखा, अत्यधिकः शिखासहितः अग्निः मन्निः यथा शुष्कं शमीतरुं ज्वलयति तथा उद्गतः मन्युः कथं त्वां न ज्वलयति उद्गतः मन्युः त्वां कथं ज्वलयति, कथं त्वां न दाहयति इति पृच्छति. अत्र उपमा अलङ्कारः, कदाचित् विशेषोक्ति अलङ्कारः अपि भवितुम् अर्हति. कारणं कारणसत्त्वे कार्यस्य अभावः विशेषोक्ति अलङ्कारः इति उच्यते. अत्र कोपस्य कोप उद्दीपनार्थं कारणानि सन्ति, किन्तु कोपः न आगच्छति इति पृच्छति. अतः अत्र विशेषोक्ति अलङ्कारः इत्यपि साधुः स्यात्. अग्रे गच्छामः. त्रयस्त्रिंशः श्लोकः. अवन्ध्यकोपस्य निहन्तुरापदां भवन्ति वश्या स्वयमेव देहिनः, अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विषादरः. अवन्ध्यकोपस्य निहन्तुः आपदां भवन्ति वश्याः स्वयमेव देहिनः, अमर्षशून्येन जनस्य जन्तुना न जातहार्देन च विद्विषादरः. विद्विषादरः अस्तु. इदानीं कोपः एव प्रतिक्रियामार्गः वा? यदि पराभवः अनुभूयते तर्हि तस्य प्रतिक्रियारूपेण किमपि कर्तुं शक्यते किल. क्षमाम् आचरितुं शक्यते अथवा उपेक्षां कर्तुं शक्यते शत्रूणाम्. एवं बहुप्रकारैः प्रतिक्रियां कर्तुं शक्येत किल. किमर्थं कोपः एव कारणीयः इति यदि युधिष्ठिरं पृच्छेत् तर्हि तदर्थमपि द्रौपदी उत्तरं ददाति अनेन श्लोकेन. देहिनः स्वयमेव वश्याः भवन्ति. देहः अस्य अस्ति इति देही देहिन् शब्दः नकारान्तः पुल्लिङ्गः. देही देहिनौ देहिनः शरीरिणः मनुष्याः इति अर्थः. मनुष्याः स्वयमेव वश्याः भवन्ति. स्वयमेव वश्याः भवन्ति. कस्य वश्याः भवन्ति इत्युक्ते अवन्ध्यकोपस्य. स्थाने यः कोपं, स्थाने कोपः इति अस्ति किल. सर्वत्र कोपं प्रकटयामश्चेत् कस्य निश्चयेन अस्माकम् अनादरः भवति एव, अस्माकम् आदरः एव भवति. किन्तु स्थाने यस्य कोपः अस्ति, वन्ध्य इत्युक्ते निष्फलः इति अर्थः. अवन्ध्य इत्युक्ते सफलः इति. अतः सफलः कोपः यस्य अस्ति, यदि कोपं प्रकटयति चेत् तस्य कोपकारणस्य सफलता भवति इति कृत्वा तत्रैव कोपः प्रकटनीयः भवति. सर्वत्र यदि कोपस्य प्रकटनं तु निश्चयेन निष्फलतामेव नयति. अतः अवन्ध्यकोपस्य सफलकोपस्य सफलक्रोधस्य पुनः वदति आपदां निहन्तुः इति. आपदां निहन्ता यः अस्ति तादृशस्य इति. कदाचित् कोपः अपकारमपि जनयितुं समर्थः भवति, अतः तादृशः कोपः न भवेत्. यः कोपः कार्यस्य उपकारी भवति तादृशः कोपः एव भवति. अतः विपत्तीनां निहन्तुः, निहन्तृशब्दः षष्ठीविभक्तिः, निहन्ता निहन्तारौ निहन्तारः इत्यस्य षष्ठीविभक्तिः निहन्तुः इति. केषां निहन्तुः भवेत्, कासां निहन्तुः भवेत् इत्युक्ते आपदां निहन्तुः भवेत्. यदि तस्य कोपस्य रिजल्ट् नाम तस्य कदाचित् कोपः विपरीतम् अर्थमपि जनयेत्. अतः यदि कोपस्य फलं विपरीतं स्यात् तर्हि तादृशाः आपदः सः हन्तुमपि समर्थाः भवेत्. अत एव आपदां निहन्तुः इति पदस्य प्रयोगः. सः सफलः कोपः भवेत्, तस्य कोपः सफलः यदि तस्य कोपस्य फलं विपरीतं स्यात् तर्हि तस्यापि सः निवारणे समर्थः भवेत् इति कृत्वा आपदां निहन्तुः, अत एव विपत्तीनां निवारकस्य इति अस्ति. विपत्तीनां तः निग्रह अनुग्रहसमर्थस्य इति अर्थः, आपत्तीनां निग्रह अनुग्रहसमर्थस्य एवं तादृशस्य पुरुषस्य देहिनः, यस्य देहः अस्ति, मनुष्याः स्वयमेव वश्याः भवन्ति, स्वयमेव तस्य वशं गताः भवन्ति. किन्तु अग्रे वदति अमर्षशून्येन, यदि कोपः एव नास्ति चेत् जनस्य आदरः न, दरः न. दरः इत्युक्ते भयम् इत्यर्थः. यदा आरम्भे पदविभागः क्रियते तदा मया दोषः कृतः. विद्विषा दरः न इति, विद्विषादरः इति आदरः इति न, विद्विषा धरः न. धरः इति पदस्य भयम् इति अर्थः, पुल्लिङ्गपदं धरः. अतः जनस्य आदरः अपि न भवति, जनस्य धरः अपि न भवति इति वदति. नाम जनस्य आदरः अपि न भवति, जनस्य भयमपि न भवति. कदा इत्युक्ते अमर्ष्यशून्येन जन्तुना जातहार्देन जनस्य आदरः न, अमर्ष्यशून्येन जन्तुना विद्विषा धरः न इति वदति. अमर्षशून्येन, अमर्षः शून्यः अस्ति, यस्य अमर्षः इत्युक्ते कोपः. मन्युः अमर्षः कोपः समानमर्थं बोधयति. अमर्षः शून्यः अस्ति नाम कोपमेव तस्य न आगच्छति. तादृशेन जन्तुः इति वदति, तादृशः कीदृशः मनुष्यः एव न, केवलं जन्ममात्रं जननमात्रं यस्य अस्ति स एव जन्तुः इति उच्यते. अतः यस्य कोपः एव नास्ति, शून्यः अस्ति यस्य मनुष्यस्य, सः केवलं जन्तुः भवति. अमर्षशून्येन जन्तुना जातहार्देन, हार्दः इत्युक्ते स्नेहः इति अर्थः. स्नेहः जातः चेत् जनस्य आदरः न भवति. पुनः अमर्षशून्येन कोपरहितेन जन्तुना विद्विषा, विद्विट् इति शब्दः द्वेषः, अतः अथवा इनिमिटि, वैरीभावनं भावना इति अर्थः. विद्विषा इति तृतीया विभक्ति. विद्विषा वैरीभावेनापि दरः मनुष्यस्य, जनस्य दरः न भवति, जनस्य आदरः अपि न भवति. अत्र द्रौपद्याः आशयः एवम् अस्ति, स्थाने कोपः करणीयः, अस्थाने कोपः त्याज्यः, क्षमा करणीया, अस्थाने क्षमा करणीया. इदानीं क्षमायाः कालः न, अयं कालः कोपस्य उचितः कालः अस्ति. अतः कथञ्चित् युधिष्ठिरस्य कोपस्य उद्दीपनं कुर्याम् इति द्रौपद्याः प्रयत्नः. अतः अमर्षशून्येन कोपरहितेन जन्तुना प्राणिना, अतैव मनुष्येन इति प्रयोगः नास्ति अत्र. जन्तुना इत्यस्यपि प्रतिपदार्थे प्राणिना इत्येव, केवलं यः श्वसिति प्राणिः सः प्राणिः एव भवति. प्राणिना जातहार्देन, जातस्नेहेन जनस्य आदरः न भवति. पुनः तेन विद्विषा दरः न भवति, तेन द्विषता सता दरः भयमपि न भवति. विद्विषा आदरः इति पदच्छेदं कृत्वा तत्र आदरः इति पदं जातहार्देन आदरः न इति योजयामः. विद्विषा दरः इति पदच्छेदं कृत्वा दरः इति पदम् अत्र विद्विषा दरः नाम वैरीभावेन भयं न इति अत्र योजयामः. अतः अत्र द्विधा पदविभागः भवति, विद्विषादरः इति पदस्य, विद्विषा आदरः इति, तदादरः इति पदं पूर्वं योजयामः, दरः इति पदं विद्विषा सहितं योजयामः. पुनः एकवारम् अवन्ध्यकोपस्य निष्फलक्रोधस्य जनस्य, पुनः आपदां निहन्तुः आपत्तीनां निग्रह अनुग्रहसमर्थस्य जनस्य, देहिनः मनुष्याः स्वयमेव वश्याः भवन्ति, स्वयमेव तस्य अधीनाः भवन्ति. किन्तु अमर्षशून्येन जन्तुना कोपरहितेन प्राणिना सह, प्राणिना सह इति जातहार्देन, अत्र तृतीया जातहार्येण इति पदस्य तृतीया विभक्तिः, कारणं वक्तुं बिकॉज ऑफ फ्रेंडशिप बिकॉज ऑफ स्नेहः इति वक्तुम् अत्र तृतीया विभक्तिः किन्तु अमर्ष्यशून्येन जन्तुना इति सह प्रयोगार्थम् अत्र तृतीया विभक्तिः सह इति पदम् अत्र अस्माभिः अध्याह्रियते अमर्ष्यशून्येन जन्तुना सह जातहार्देन जातस्नेहेन स्नेहकारणेन आदरः न जनसि किमपि प्रयोजनं न भवति तेन अमर्ष्यशून्येन जन्तुना सह विद्विषा वैरभावनया अवैरीभावनया अत्रापि कारणं वक्तुं तृतीया विभक्तिः विद्विषा इति तृतीया विभक्तिः कारणं हेतुत्वात् दरः अपि न भयमपि न भवति अतः स्थाने अवश्यं कोपः कार्यः एव अस्तु अग्रे गच्छामः चतुस्त्रिंशः श्लोकः परिभ्रमन् लोहितचन्दनोचितः पदातिरन्तर्गिरिरेणुरूषितः महारथ सत्यधनस्य मानसं दुनोति नो कच्चिदयं मृकोदरः परिभ्रमन् लोहितचन्दनोचितः पदातिः अन्तर्गिरिरेणुरूषितः महारथः सत्यधनस्य मानसं दुनोति नो कच्चित् अयं वृकोदरः इदानीं द्रौपदी एकैकस्य भ्रातुः स्थितिं वदति इतोपि युधिष्ठिरस्य अनुजानां भीमादीनां स्थितिः कीदृशी अस्ति ते पूर्वं कथम् आसन् तत्र इदानीं राज्यसभायां तेषां स्थितिः कीदृशी कीदृशानि सुखानि अनुभवन्तः आसन् इदानीं ते कथं सन्ति एतत् सर्वं दृष्ट्वा अपि भवतः कोपः न आगच्छति किम् इति द्रौपदी पृच्छति पश्यामः प्रथमं भीमं स्वीकरोति वृकोदरः इति अस्ति भीमः प्रायेण युधिष्ठिरात् परः भीमः इति कृत्वा तेन क्रमेण इत्यपि कारणं स्यात् नो चेत् अतिपराक्रमशाली अस्ति भीमः सम्यक् खादित्वा सुखानि अनुभूय तत्र आसीत् इति कारणात् भीमस्य स्वीकरणं प्रथमम् इत्यपि स्यात् लोहितवृकोदरः सत्यधनस्य मानसं नो दुनोति कच्चित् वृकोदरः इति पदस्य प्रयोगः वृकः इव उदरः यस्य अस्ति सः वृकोदरः बहुषु व्याख्यानेषु वृकोदरः इति पदस्य महान् उदरः इति व्याख्या दृश्यते महान् उदरः न बृहत् उदरः इति अर्थः न वृकः इत्युक्ते ओना इति वदामः किल हयना इति सः यावत् तस्य महती बुभुक्षा भवति किन्तु यावत् सः एकं गजमपि खादितुं समर्थः अस्ति सः प्राणी इति पशुः सः ओनाय् हयन्ना गजमपि खादितुं तावती बलवती बुभुक्षा अस्ति भवति तस्य किन्तु यावत् सः खादति तथापि तस्य उदरं बृहत् न भवति इति सर्वदा फ्लाट् उदरं भवति कृशः उदरः भवति तस्य वृकस्य तथा भीमस्य उदरमपि एवमेव कृशः उदरः एव महान् उदरः न यावत् सः खादति तथापि तस्य उदरः कृशः भवति इति सूचयितुम् अत्रापि एक वृकोदरः इति पदेन द्रौपदी सः पूर्वं बहु सम्यक् तावत् खादन् सुखम् अनुभवन् आसीत् इदानीं तु वनेचरः अस्ति इति सूचयितुमपि वृकोदरः इति पदस्य प्रयोगः अत्र भीमः इति वा नो चेत् अस्ति अस्य अन्यपदेन वा प्रयोगः न क्रियते द्रौपद्या वृकोदरः इति वृकः इव सः खादन् आसीत् पूर्वम् इति सूचयितुं वृकोदरः इति पदस्य प्रयोगः सः कीदृशः आसीत् पूर्वं तादृशः वृकोदरः सत्यधनस्य मानसं नो दुनोति कच्चित् नो नो इति पदस्य अत्र सन्धिकारणेन नः इति न नो इत्युक्ते न इति अर्थः आङ्ग्लभाषायां वदामः किल नो नो चेत् इत्यपि वदामः वयं चेत् नो चेत् इति नो इति संस्कृतं पदमस्ति न इति अर्थं बोधयति न दुनोति कच्चित् न दुनोति किं न सन्तापयति किम् इति अर्थः अस्तु कीदृशः वृकोदरः पूर्वं कथमासीत् इदानीं कथमस्ति इति लोहित चंदन चंदनोचित लोहित चंदनम, लोहितम इत्युक्ते रक्त इति अर्थः, रक्तवर्णं, रक्तचन्दनं, रेड् सैंडल्, रक्तचन्दन उचितः आसीत् वृकोदरः, रक्तचन्दन चन्दनं लेपयितुम् उचितः आसीत्, नाम तावत् प्रास्पेरिटि, ऐश्वर्यम् आसीत् सः स्वशरीरे रक्तचन्दनं लेपितवान् इति, रक्तचन्दनो उचितः सः वृकोदरः। इदानीं कथम् अस्ति इत्युक्ते, रेणुरूषितः, रेणु इत्युक्ते धूलिः इति अर्थः, धूसि इति वदामः किल, रेणुना रूषितः अस्ति इदानीं, रेणुना लिप्तः शरीरः, धूलि धूसरितः अस्ति वृकोदरः। पूर्वं कथम् आसीत् इति, तद् पूर्वं लोहितचन्दन उचितः इति पूर्वं वृकोदरः, अधुना तु रेणुरूषितः अस्ति। एवमेव पूर्वं महारथः आसीत्, रथचारी रथेन एव गच्छन् आसीत् सः, यः रथेन गच्छति सः महारथः, महत् महता रथेन गच्छति, बृहत् रथेन, बृहता रथेन यः गच्छति सः महारथः। महारथः इति पदं भिन्नं, महारथी इत्युक्ते तद् एक पोसिशन् भवति, महारथी, अतिरथी, अतिमहारथी इति उच्यते, तत्र यावन्ति यावत् सैनिकान् ते मारयितुं समर्थाः भवन्ति तद् अनुगुणं ते सः अतिरथी वा, सः महारथी वा, सः अतिमहारथी वा इति विभागः क्रियते। भीमः तु केवलं रथी एव, सः महारथी वा अतिरथी वा न, अर्जुनः, अभिमन्युः एते एव, एतादृशाः एव अतिरथिनः महारथिनः भवन्ति। अतः अत्र महारथः, महारथः इति पदेन महता रथेन गच्छन् आसीत् इति अर्थः, रथेन गच्छन् आसीत् सः वृकोदरः पूर्वम्। इदानीं कथमस्ति, पदातिः अस्ति, पादचारी अस्ति, पद्भ्यामेव गच्छति इदानीं वने इति, गज रथ गज तुरग पदातिः इति उच्यते सैनिकानां सेनायाः चत्वारि अङ्गानि, रथ रथ गज तुरग पदातिः, पदातिः नाम पादचारिणः इति अर्थः। अतः इदानीं भीमः अपि पदातिः अस्ति, पादचारी अस्ति, पूर्वं रथे गच्छन् आसीत् इदानीं पदातिः। इतोपि कीदृशः अस्ति, अन्तर्गिरिपरिभ्रमन्, अन्तः गिरीषु परिभ्रमन्, पर्वतेषु, पर्वतमध्यभागेषु सः परिभ्रमन् अस्ति, अटन् अस्ति सः वृकोदरः, तादृशः वृकोदरः। सत्यधनस्य मानसं नो दुनोति कच्चित् अयं वृकोदरः, एषः भीमः, सत्यधनस्य मानसं नो दुनोति कच्चित्। सत्यधनः अस्ति भवान् इदानीं, सत्यधनस्य युधिष्ठिरस्य, सत्यधनः, सत्यम् एव धनं यस्य अस्ति सः सत्यधनः, तादृशस्य भवतः इदानीं। सत्यधनस्य इति पदस्य द्रौपद्याः पदचयनं, तत्र तत्र कीदृशं विशेषणं वक्तव्यम् इति द्रौपद्याः एव शिक्षणीयं स्यात्। सत्यधनस्य, इदानीमपि सत्यमेव धनम् इति चिन्तयन् अस्ति भवान्, तादृशस्य भवतः इति अर्थः। इदानीं भ्रातॄणां एतादृशीं स्थितिं ज्ञात्वापि अहं सत्यमेव धनं भव, सत्यमेव आश्रित्य अहं भवामि इति चिन्तयन् अस्ति किल भवान्, तादृशस्य भवतः। भ्रातॄणां भ्रातरः भवतः धनं नास्ति इदानीं, सत्यमेव धनम् इति चिन्तयति, तादृशस्य तव मानसं, मनः नो दुनोति कच्चित्, न सन्तापयति किम् इति, कच्चित् इति पदस्य न किम् इति अर्थः, न दुनोति, न परितापयति किं, दुःखं तव मानसं दुःखं न अनुभवति किं, तव मनः दुःखं न अनुभवति किम् इति पृच्छति। एवम् अयं वृकोदरः, कीदृशः वृकोदरः, अन्वयः द्विधा कर्तुं शक्यते, लोहितचन्दनोचितः, रेणुरूषितः इति पूर्वं कथमासीत्, इदानीं कथमस्ति इति पदद्वयम् एकत्र, एवमेव महारथः पदातिः इति मिलित्वा, पूर्वं महारथः आसीत् इदानीं पदातिः अस्ति इति एवमपि अन्वयः भवितुमर्हति, अथवा पूर्वं सः कथम् आसीत् इति एतद्वयमपि मिलित्वा, नाम लोहितचन्दनोचितः महारथः पूर्वं वृकोदरः आसीत्, इदानीन्तनवृकोदरः कथमस्ति रेणुरूषितः पदातिः इति तथापि अन्वयः भवितुमर्हति. लोहितचन्दन उचितः रक्तचन्दनलिप्तः लिप्तशरीरः महारथः महारथचारी, एतत् पूर्वम्. इदानीं कथमस्ति रेणुरूषितः धूलिधूसरितः, रूषितः इत्युक्ते लिप्तः इति अर्थः, रेणुना लिप्तशरीरः इति. इदानीं पुनः पदातिः अस्ति, पादचारी अस्ति, अन्तर्गिरिपरिभ्रमन्, अन्तर्गिरि इति सप्तमी विभक्त्यर्थे अव्ययीभावसमासः, अतः अर्थः यदा स्वीक्रियते तदा गिरिषु पर्वतेषु इति सप्तमी अर्थम्. यथा अधिहरि इति पदमस्ति, हरौ इति विग्रहं लिखामः, तथा अन्तर्गिरि इति अव्ययीभावसमासः, गिरि पर्वतस्थलेषु इति अर्थः, गिरौ इति अर्थे. गिरिषु परिभ्रमन् अटन् अयं वृकोदरः, अटन् अस्ति अयं वृकोदरः, अद्यापि सत्यमेव आश्रितस्य तव मानसं मनः न सन्तापयति, किम् अयं वृकोदरः, एतस्य वृकोदरस्य स्थितिं दृष्ट्वा भवतः कोपः न आगच्छति किं, भवतः सन्तापः न भवति किम् इति पृच्छति. एकवारं भावार्थं, हे नृप सत्यधन, पूर्वं यदा त्वं राज्यं पालयसि तदा असौ भीमः चन्दनलिप्त अङ्गः सविलासं रथेषु सञ्चरति. चन्दनलिप्त अङ्गः सविलासं एन्जाय् पण्ड्रद् इति अर्थः, रथेषु सञ्चरति स्म. स एव अद्य धूलिधूसरितशरीरः, धूल्या लिप्तशरीरः अथवा धूल्या मलिनीकृतः शरीरः पर्वतमध्ये पादचारी सन् दैन्येन सञ्चरति, दैन्यभावेन सः सञ्चरति. एतद् दृष्ट्वा अपि तव मनः न सन्तपति किम्,